रक्त स्वर्ण वर्णाभ संरक्तारुण लोचन सुग्रीवादियुतं ध्यायेत् पीतांबर समावृतम् पुष्पदीकृत वारीशं पुच्छमस्तकमीश्वरं ज्ञान मुद्रां च विभ्राणं सर्वालंकार भूषितं हनुमान् श्री प्रदो वायु पुत्रो रुद्रो नभोजरः अमृत्युर्वीर वीरश्च रामवासो जनाश्रयः धनदो निर्गुणोकायो वीरो निधिपतिर्मुनिः लिङ्गाक्षो वरदो वाग्मी सीताशोक विनाशनः शिवः सर्वः परो व्यक्तो व्यक्तो रसाधरः लिङ्गकेशः स्त्रिङ्गरोमा श्रुतिगम्यः सनातनः अनादिर्भगवान् देवो विश्वहेतुर्निरामयः आरोग्यकर्ता विश्वेषु विश्वनाथो हरीश्वरः भर्गो रामो राम भक्त कल्याण प्रकृतिः स्थिरः विश्वंभरो विश्वमूर्तिर् विश्वाकारोऽथ विश्वपः विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वहरो रविः विश्वचेष्टो विश्वगम्यो विश्वधेयः कलाधरः लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वैद्यो वरीचरः बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखायजः अञ्जनासूनुर्व्यग्रो रामख्यातो धराधरः पूर्वभस्वर्महर्लोको जनलोकस्तपो व्ययः सत्यम् ओङ्कारगम्यश्च प्रणवो व्यापकोमलः शिवधर्म प्रतिष्ठाता रामेष्ठ फाल्गुनप्रियः पुष्पदीकृतवारीशः पूर्णकामो धरापतिः रक्षोघ्नः पुण्डरीकाक्ष शरणागत वत्सलः ज्ञानकी प्राणदाता च रक्षः प्राणापहारतः पूर्णः सत्यपीतवासा दिवाकर समप्रभः देवो ज्ञानविहारी च देवता भयभञ्जनः भक्तोदयो भक्तलब्धो भक्तपालन तत्परः द्रोणहर्ता शक्तिमेता शक्तिराक्षसमारकः अक्षघ्नो रामदूतश्च शाकिनी जीवहारकः उपकार हकारातिर् सर्वपर्वतमर्दनः हेतुस्त्वहेतु प्रांशुश्च विश्वकर्ता जगद्गुरुः जगन्नेता जगन्नाथो जगदीशो जनेश्वरः जगद्धितो हरिश्रीषु गरुडस्मये भञ्जनः पार्थध्वजो वायुपुत्रो मितपुच्छो मितविक्रमः ब्रह्मपुच्छ परब्रह्म पुच्छो रामेष्टकारकः सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः कल्पस्थायी चिरञ्जीवी तपनश्च सदाशिवः सन्नतः सद्गतिर्भुक्ति मुक्तिदः कीर्तिदायकः कीर्तिर्कीर्तिप्रदश्चैव समुद्रः श्रीपदः शिवः भक्तोदयो भक्तगम्यो भक्तभाग्यप्रदायकः उदधिक्रमणो देवः संसारभयनाशनः बाधबन्धनकृद्विश्व जेता विश्वप्रतिष्ठितः लङ्कारिः कालपुरुषो लङ्केश गृहभञ्जनः भूतावासो वासुदेवो वसुश्री भुवनेश्वरः श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जकः कृष्णस्तुतः शान्तः शान्तितो विश्वपावनः विश्व भोक्ताथ मारग्नो ब्रह्मचारी जितेन्द्रियः मूलाङ्गुलीमाली अङ्गुलाहत राक्षसः समीर तनुजो वीरो वीरतारो जयप्रदः जगन्मङ्गलदः पुण्य पुण्यश्रवण कीर्तनः पुण्यकीर्तिः पुण्यगतिर्जगत्पावन पावनः देवेशो जितमारुत राम भक्ति विधायकः दाता ध्येयो लयः साक्षी गीता चैतन्य विग्रहः ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः विभीषण प्रियः शूरः पिप्पलाशय सिद्धिदः सिद्धः सिद्धाशयः कालो महोक्षः कालजान्तकः लङ्केश निधनस्थायी लङ्कादाहकीश्वरः चन्द्रसूर्याग्निनेत्रश्च कालाभिः प्रलयान्तकः कपिलः कपिशः पुण्यराशिर्द्वादश राशिगः सर्वाशयो प्रमेयात्मा देवस्यादि निवारकः लक्ष्मण प्राणदाता च सीता जीवन हेतुकः रामदेयो ऋषिकेशो विष्णुभक्तो जटीबलि देवारिदर्पः होता आता कर्ता जगत् प्रभुः सगर रामपालश्च शुद्धो बुद्धो निरत्रपः निरञ्जनो निर्विकल्पो गुणातीतो भयङ्करः हनुमांश्च दुराराध्य तपः साधु महेश्वरः जानकी धनशोको तापहर्ता परात्परः वाङ्मयः सदा सद्रूपः कारणम् प्रकृतिः परः भाग्यदो निर्मलो नेता पुच्छलङ्का विदाहकः पुच्छबद्ध यातु धान रिपुप्रियः छायापहारि भूतेषु लोकेशः सद्गतिप्रदः लवङ्गमेश्वरः क्रोधः क्रोधसङ्ग्रहलोचनः सौम्यो गुरुः काव्यकर्ता भक्तानां च वरप्रदः भक्तानुकम्पि विश्वेश गुरुभूतः पुरन्दरः क्रोधहर्ता तमोहर्ता भक्ताभयवरप्रदः निर्विभावसुरभास्वान् यमो निरृतिरेव च वरुणो वायुगतिमान् वायुः सौबेर ईश्वर रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः तनेश्चरः राहुः केतुर्मरुद्भूता आता हर्ता समीरजः अश्कीकृत देवारिर्दैत्यारिर्मधुसूदनः कामः कपिः कामपालः कपिलो विश्वजीवनः भागीरथी पदाम्भोजः हेतुबन्ध विशारदः स्वाहा स्वधाः विकव्यम् अव्यवाह प्रकाशकः स्वप्रकाशो महावीरो लघुरूर्जित विक्रमः उड्डीनोड्डीन गतिमान् सद्गतिः पुरुषोत्तमः जगदात्मा जगद्योनिर् जगदन्तो ह्यनन्तकः विपाप्मा निष्कलङ्कोऽथ महामहदहङ्कृतिः वायुः पृथिवी चापो वह्निर्दिक्पाल एव च क्षेत्रज्ञः क्षेत्रहर्ता च पल्वलीकृतसागरः हिरण्मयः पुराणश्च केचरो कूचरोमरः हिरण्यगर्वसूत्रात्मक राजराजो विशाम्पतिः वेदान्तवेद्य उद्गीथो वेदवेदाङ्गपारदः प्रतिग्रामस्थितिः सद्यः कोटिदाता गुणाकरः लक्ष कालीभूतात्मा सुरभिः कल्पपादपः चिन्तामणिर्गुणनिधिः सजाधारो जनुत्तमः पुण्यश्लोकः पुराराधिः ज्योतिष्मान् शर्वरीपतिः किल्किलारावसन्त्रस्त भूतप्रेतपिशाचकः हिणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् अपस्मारहरः श्रता श्रुतिर्गाथा स्मृतिर्मनुः स्वर्गद्वारम् प्रजाद्वारम् मोक्षुद्वारम् यतीश्वरः नादरूपः परम् ब्रह्म 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 पुरातनः एको नेको जनः शुक्लः स्वयम् ज्योतिर्नाकुलः ज्योतिर्ज्योतिर्नादिश्च सात्विको राजसत्तमः समोहर्ता निरालम्बो निराकारो गुणाकरः गुणाश्रयो गुणमयो बृहत्कर्मा बृहद्यशाः बृहत्पादो बृहन्मूर्धा बृहत्स्वनः बृहत्कर्णो बृहन्नासो बृहद्बाहो बृहत्तनुः बृहच्चानुर्बृहत्कार्यो बृहत्पुच्छो बृहत्करः बृहद्गतिर्बृहत्सेव्यो बृहल्लोकफलप्रदः शक्तिर्बृहद्वांशा फलदो बृहदीश्वरः बृहल्लोकनुतो द्रष्टा विद्यादात जगद्गुरुः देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः सप्तपातालगामी च मलयाचल संश्रयः उत्तराशास्ति सह श्रीदो दिव्यौषधिवशः खगः शाखामृगः कपीन्द्रोऽथ पुराणश्रुतिचञ्चुरः चतुर्ब्राह्मणो योगी योगगम्यः परावरः अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः अपराजितो जितारातिः सदानन्दो दयायुतः गोपालो गोपतिर्गोप्ता कलिकाल पराशरः मनोवेगी सदा योगी संसार भयनाशनः तत्त्वदाता तत्त्वज्ञः सत्त्वम् तत्त्वप्रकाशकः शुद्धो बुद्धो नित्यमुक्तो भक्तराजो जयद्रथः कलयो मितमायश्च मायातीतो विमत्सरः मायाभर्जित रक्षाश्च माया निर्मित विष्टपः मायाश्रयश्च निर्लेपो माया निर्वर्तकः सुखम् सुखी सुखप्रदो नागो महेशकृत संस्तवः महेश्वरः सत्यसन्धः शर्वकले पावनः सहस्रकन्धरबल विध्वंसन विचक्षणः सहस्रबाहुः सहजो द्विबाहुर्द्विभुजोमरः चतुर्भुजो दशभुजो खयग्रीवः खगाननः कपिवक्त्रः कपिपतिर्नरसिंहो महाद्युतिः ईषणो भावगो वन्द्यो वराहो वायुरूपधिक् लक्ष्मणप्राणदाता च पराजित दशाननः पारिजात निवासी च वटुर्वचन कोविदः सुरसास्य विनिर्मुक्तः सिंहिका प्राणहारकः लङ्कालङ्कार विध्वंसी कृशदंशक रूपधिक् रात्रिसञ्चार कुशलो रात्रिंशर ग्रहाग्निदः किङ्करान्तकरो जम्बु पालिहन्तो ग्ररूपधिक् आकाशचारि हरिगो मेघनाथ रणोत्सुकः मेघगम्भीरनिनदो महारावण कुलाङ्कः छालनेमि प्राणहारि मकरि शाप मोक्षदः रसो रसज्ञः सम्मानो रूपं चक्षुश्रुतिर्वचः प्राणो गन्धस्पर्शनं च स्पर्शोऽहङ्कारमानगः नेति नेतीर्थगम्यश्च वैकुण्ठ भजन प्रियः गिरीशो गिरिजाकान्तो दुर्वासाः कविरङ्गिरः भृगुर्वसिष्ठश्च वनो नारदस्तुम्बरोमलः विश्वक्षेत्रो विश्वबीजो विश्वनेत्रश्च विश्वपः याजको यजमानश्च पावकः पितरस्तथा श्रद्धा बुद्धिः क्षमा तन्द्र मन्त्रो मन्त्रयिता स्वरः राजेन्द्रो भूपतिरुण्ड माली संसारसारथिः नित्यसम्पूर्णकामश्च भक्तकामधुगुत्तमः गणपः केशवो भ्राता पिता माता च मारुतिः सहस्रमूर्धानेकाख्यः सहस्राक्ष सहस्रपात् कामजित् कामदहनः कामः कामफलप्रदः मुद्रापहारि रक्षोघ्नः क्षितभार हरो बलः रक्तस्रायुधो विष्णुर्भक्ता भयवरप्रदः दर्पः दर्पदो दंश्राव शतमूर्तिर्मूर्तिमान् महानिधिर्महाभागो महाभर्गो महर्धिदः महाकारो महायोगी महातेजा महाद्युतिः महासनो महानादो महामन्त्रो महामतिः महागमो महोदारो महादेवात्मको विभुः बौद्धकर्मा पूरकर्मा रत्ननाभः कृतागमः अम्भोधिलङ्घनः सिंह सत्यधर्म प्रमोदनः जिता मित्रो जयः सोमो विजयो वायुनन्दनः जीवदाता सहस्रांशुर्मुकुन्दो भूरि दक्षिणः सिद्धार्थः सिद्धिदः सिद्ध सङ्कल्पः सिद्धिहेतुकः सप्त पातालचरणः सप्त ऋषिगणवन्दितः सप्ताभिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः सप्ताङ्गराज्यसुखदः सप्त मातृनिषेवितः सप्त स्वरलोकमुकुटः सप्त होता स्वराशयः सप्त छन्दो निधि सप्त छन्दः सप्त जनाशयः सप्त कामोपगीतश्च सप्त पाताल संश्रयः मेधादः कीर्तिदः शोक हारि दौर्भाग्यनाशनः सर्वरक्षाकरो गर्भ दोषः पुत्रपौत्रदः प्रतिवादे मुखस्तम्भो दुष्टचित्त प्रसादनः पराभिचार शमनो दुःखः बन्धमोक्षदः नवद्वार पुराधारो नवद्वार निकेतनः नरनारायण स्तुत्यो नवनाथ महेश्वरः मेखली कवची खड्गी भाजिष्णुर्जिष्णुसारथिः बहुयोजन विस्तीर्ण पुच्छ पुच्छ हतासुरः दुष्टग्रह निहन्ता च निशाच ग्रहघातकः बालग्रह विनाशी च धर्मनेता कृपाकरः उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः शतमन्युतः स्तुत्यः स्तुतिः स्तोता महाबलः समग्रगुणशाली च शत्रु रक्षो विनाशकः रक्षो मिताहो ब्रह्मेशः श्रीधरो भक्तवत्सलः वेगनादो मेघरूपो मेघ वृष्टि निवारकः मेघ जीवन हेतुश्च मेघ श्यामः परात्मकः समीर तनयो योद्धा नृत्य विद्या विशारदः अमोघो मोघ दृष्टिश्च इष्ट दोरिष्ट नाशनः अर्थो नर्थापहारी च समर्थो राम सेवकः अर्थि वंद्यो सुरारातिः पुंडरीकाक्ष आत्मभुः संकर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः अचलो धारको नित्यः हेतुकृद् राम सारथिः आनन्दः परमानन्दो मत्स्यः कूर्मो निराशयः वाराहो नारसिंहश्च वामनोजमदग्निजः रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः कर्माध्यक्षः सुराध्यक्षो विश्रामो जगतीपतिः जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः सुग्रीवादिस्तुतो दान्तः सर्वकर्माप्लवङ्गमः नखदारितरक्षाश्च नखयुद्धविशारदः कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा स्वर्णवर्णो बलाढ्यश्च कुरुचेता घनाशनः कैवल्यरूपः कैवल्यो गरुडः पन्नगोरगः किल्किल्लावः तारातिर् सर्वपर्वतभेदनः वज्राङ्गुवज्रतंस्रश्च भक्तवज्रनिवारकः नखायुधो मणिग्रीवो ज्वालामाली च भास्करः प्रौढप्रतापस्तपनो भक्ततापनिवारकः शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः स्वस्तिमान् स्वस्तिदो दुःखशासनः पवनात्मजः पावनः पवनः कान्तो भक्तागः सहनो बलि मेघनाद रिपुर्मेघ नाद संहत राक्षसः क्षरोक्षरो विनीतात्मा वानरेशः सतां गतिः श्रीकण्ठ श्रितिकण्ठश्च सहायः सहनायकः अस्थूलस्तुनुर्भर्गो दिव्यः संस्कृतिनाशनः अध्यात्मविद्यासारश्च व्यध्यात्मकुशलः सुधी अकल्मषः सत्यहेतु सत्यतः सत्यगोचरः सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः अञ्जना प्राणलिङ्गश्च वायुवंशोद्भवः शुभः भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधिक् मैनाकवन्दितः सूक्ष्म दर्शनो विजयो जयः क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृत विक्रमः शम्भुकण्ठः प्रसन्नात्मा विश्वनासो वृकोदरः लम्बोष्ठः कुण्डली चित्र खाली योग विदाम्बरः विपश्चित् कविरानन्द विग्रहो नल्पशासनः फाल्गुनी सूनुर्व्यग्रो योगात्मा योगतत्परः योगविद्योगकर्ता च योगयो निर्दिगम्बरः अकारादेहकारान्त वर्णनिर्मित विग्रह कुलूखल मुखः सिद्ध संस्तुतः प्रमथेश्वरः श्रेष्ठजङ्ग शिलिष्टजानु श्रेष्ठपाणिः शिखाधरः सुशर्मामित शर्मा च नारायण परायण शिष्णुर्भविष्णुरोचिष्णुर्गशिष्णुस्ताणुरेव च हरिरुद्रानुसेकोऽथ कं निकम्पन गुण प्रवाह सूत्रात्मा वीतराग स्तुति प्रिय नाग कन्या भयध्वंसी रुक्म वर्ण कपाल आनाकुलो भवो पायो न पायो वेद पारग अक्षर पुरुषो लोक नाथ ऋक्ष प्रभुर्दृढ़ अष्टांग योग फल भुक् सत्य संदह पुरुषुतः शमशान स्थान निलय प्रीत विद्रावण क्षम पंचाक्षर पर पंच मातृको रंजन ध्वज योगिनी वृंद वंद्य श्री शत्रुघ्नो नंद विक्रम ब्रह्मचारी इंद्रिय रिपु हृतदंडो दशात्मक प्रपंच सदाचार शूरसेना विदारक वृत्तः प्रमोदानन्दः सप्तद्वीप पतिन्धरः नवद्वार पुराधारः सत्यग्रह सामगायकः षट्चक्रधाम स्वरलोका भयकृन्मानदो मदः सर्ववश्यकरः शक्तिर्दन्तो नन्द मङ्गलः अष्टमूर्तिर्नयोपेतो विरूपः सुरसुन्दरः धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः नन्दिप्रियः स्वतन्त्रश्च मेखिलीडमुरुप्रियः लोहाङ्गः सर्वविद्धन्वि खण्डलः सर्व ईश्वरः फलभुक्फलहस्तश्च सर्वकर्म फलप्रदः धर्माध्यक्षो धर्मपालो धर्मो धर्मप्रदोरथदः पञ्चविंशन्ति तत्त्वज्ञ तारको ब्रह्म तत्परः त्रिमार्गवसतिर्भीमः सर्वदुःख निवर्हणः ऊर्जस्वान् निष्कलः शूलि कौलिर्गर्जन् निशाचरः रक्ताम्बर धरो रक्तो रक्तमाल्यो विभूषणः वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा जयो जय परिवार सहस्रवदनः कपिः शाकिनी डाकिनी यक्ष रक्षो भूत प्रभञ्जकः सद्यो जातः कामगतिर् ज्ञानमूर्तिर्यशस्करः शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः चतुर्नवति मन्त्रज्ञः कौलस्य बलदर्पः सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः प्रतिबीजं सुरेशानः संसारभयनाशनः उत्तमः श्रीपरिवारः श्रुतो रुद्रश्च कामधुक्